भद्राम् षड्भुजाम् च चतुर्मुखाम् त्रिनेत्राम् च त्रिशूलाम् च पद्मचक्रगदाधराम् पीताम्बरधराम् देवीम् नानालङ्कारभूषिताम् तेजःपुञ्जधराम् श्रेष्ठाम् ध्यायेत् बालकुमारिकाम् ओङ्कारलक्ष्मीरूपेण विष्णो हृदयमव्ययम् विष्णुमानन्दमध्यस्थम् ह्रीङ्कारबीजरूपिणी ॐ क्लीममृतानन्दभद्रे सत्य आनन्ददायिनी ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनि शत्रुमर्दिनी तेजःप्रकाशिनी देवी वरदा शुभकारिणी ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी आकार ब्रह्मरूपेण ओंकारं विष्णुमव्ययम् सिद्धिलक्ष्मी परा लक्ष्मी लक्ष्म्यलक्ष्मी नमोऽस्तुते सूर्यकोटिप्रतीकाशम् चन्द्रकोटिः समप्रभम् तन्मध्ये निकरे सूक्ष्मम् ब्रह्मरूपव्यवस्थितम् ओंकार परमानन्दम् क्रियते सुखसंपदा सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके प्रथमे त्र्यम्बिका गौरी द्वितीये वैष्णवी तथा तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी पञ्चमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा सप्तमे च वरारोहा अष्टमे वरदायिनी नवमे खड्गत्रिशूले दशमे देवदेवता एकादशे सिद्धिलक्ष्मी द्वादशे ललितात्मिका एतत् स्तोत्रम् पठन्तस्त्वाम् स्तुवन्ति भुवि मानवाः सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा एकमासम् द्विमासम् वा त्रिमासम् च चतुर्थकम् पञ्चमासम् च षण्मासम् त्रिकालम् यः पठेन्नरः ब्राह्मणा क्लेशतो दुःख दरिद्रा भयपीडिताः जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः अलक्ष्मीर्लभते लक्ष्मी मत्पुत्र पुत्रमुत्तमम् धन्यम् यशस्यमायुष्यम् वह्निचौरभयेषु च शाकिनी भूतवेताल सर्वव्याधिनिपातके राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे सभास्थाने श्मशाने च कारागे हारिबन्धने अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीम् जपेन्नरः ईश्वरेण कृतम् स्तोत्रम् प्राणिनाम् हितकारणम् स्तुवन्ति ब्राह्मणा नित्यम् दारिद्र्यम् न च वर्धते या श्रीपद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च युपस्थिते शङ्खे देवकुले नरेन्द्रभवनि गङ्गातटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ब्राह्मीं च वैष्णवीं भद्राम् षड्भुजाम् च चतुर्मुखाम् त्रिनेत्राम् च त्रिशूलाम् च पद्मचक्रगदाधराम् पीताम्बरधराम् देवीम् नानालङ्कारभूषिताम् तेजःपुञ्जधराम् श्रेष्ठाम् ध्यायेत् बालकुमारिकाम् ओङ्कारलक्ष्मी हृदयमव्ययम् विष्णुमानन्दमध्यस्थम् ह्रीङ्कारबीजरूपिणी ॐ क्लीं अमृतानन्दभद्रे सत्य आनन्ददायिनी ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी तेजःप्रकाशिनी देवी वरदा शुभकारिणी ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी आकार ब्रह्मरूपेण ओंकारं विष्णुमव्ययम् सिद्धिलक्ष्मी परालक्ष्मी लक्ष्म्यलक्ष्मी नमोऽस्तुते सूर्यकोटिप्रतीकाशम् चन्द्रकोटिसमप्रभम् तन्मध्ये निकरे सूक्ष्मम् ब्रह्मरूपव्यवस्थितम् ओंकार परमानन्दम् क्रियते सुखसंपदा सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके प्रथमे त्र्यम्बिका गौरी द्वितीये वैष्णवी तथा तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी पञ्चमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा सप्तमे च वरारोहा अष्टमे वरदायिनी नवमे खड्गत्रिशूले दशमे देवदेवता एकादशे सिद्धिलक्ष्मी द्वादशे ललितात्मिका एतत् स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ब्राह्मणा क्लेशतो दुःखद्दरिद्रा भयपीडिताः जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः अलक्ष्मीर्लभते लक्ष्मी मत्पुत्र पुत्रमुत्तमम् धन्यं यशस्यमायुष्यम् वह्निचौरभयेषु च शाकिनी भूतवेताल सर्वव्याधिनिपातके राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे सभास्थाने श्मशाने च कारागे हारिबन्धने अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ईश्वरेण कृतं स्तोत्रम् प्राणिनां हितकारणम् स्तुवन्ति ब्राह्मणा नित्यम् दारिद्र्यं न च वर्धते या श्रीपद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च युपस्थिते शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखां त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम् पीताम्बरधराम् देवीम् नानालङ्कारभूषिताम् तेजःपुञ्जधराम् श्रेष्ठाम् ध्यायेत् बालकुमारिकाम् ओङ्कारलक्ष्मीरूपेण विष्णोहृदयमव्ययम् विष्णुमानन्दमध्यस्थम् ह्रीङ्कारबीजरूपिणी ॐ क्लीं अमृतानन्दभद्रे सत्य आनन्ददायिनी ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी तेजःप्रकाशिनी देवी वरदा शुभकारिणी ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी आकार ब्रह्मरूपेण ओंकारं विष्णुमव्ययम् सिद्धिलक्ष्मी परा लक्ष्मी लक्ष्म्यलक्ष्मी नमोस्तुते सूर्यकोटि प्रतीकाशम् चंद्रकोटि समप्रभम् तन्मध्ये निकरे सूक्ष्मम् ब्रह्मरूपव्यवस्थितम् ओंकार परमानन्दम् क्रियते सुखसंपदा सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके प्रथमे त्र्यंबिका गौरी द्वितीये वैष्णवी तथा तृतीये कमला प्रोक्ता चतुर्थे सुरसुंदरी पंचमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा सप्तमे च वरारोहा अष्टमे वरदायिनी नवमे खड्गत्रिशूले दशमे देवदेवता एकादशे सिद्धिलक्ष्मी द्वादशे ललितात्मिका एतत् स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ब्राह्मणा क्लेशतो दुःख दरिद्रा भयपीडिताः जन्मांतर सहस्रेषु मुच्यन्ते सर्वक्लेशतः अलक्ष्मीर्लभते लक्ष्मी मपुत्र पुत्रमुत्तमम् धन्यं यशस्यमायुष्यम् वह्निचौरभयेषु च शाकिनी भूतवेताल सर्वव्याधिनिपातके राजद्वारे महाघोरे संग्रामे रिपुसंकटे सभास्थाने श्मशाने च कारागे हारिबन्धने अशेष भय संप्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणं स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते या श्रीपद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च युपस्थिते शंखे देवकुले नरेन्द्र भवनी गंगातटे गोकुले साश्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखां त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधरां पीतांबरधरां देवीं नानालंकारभूषितां तेजपुञ्जधरां श्रेष्ठां ध्यायेत् बालकुमारिकां ओंकारलक्ष्मीरूपेण विष्णोहृदयमव्ययम् विष्णुमानन्दमध्यस्थम् ह्रीङ्कारबीजरूपिणी ओं क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी तेजःप्रकाशिनी देवी वरदा शुभकारिणी ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी आकार ब्रह्मरूपेण ओंकारं विष्णुमव्ययम् सिद्धिलक्ष्मी परा लक्ष्मी लक्ष्म्यलक्ष्मी नमोस्तुते सूर्य सूर्यकोटि प्रतीकाशम् चंद्रकोटि समप्रभम् तन्मध्ये निकरे सूक्ष्मम् ब्रह्मरूपव्यवस्थितम् ओंकार परमानंदम् क्रियते सुखसंपदा सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके प्रथमे त्र्यंबिका गौरी द्वितीये वैष्णवी तथा तृतीये कमला प्रोक्ता चतुर्थे सुरसुंदरी पंचमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा सप्तमे च वरारोहा अष्टमे वरदायिनी नवमे खड्गत्रिशूले दशमे देवदेवता एकादशे सिद्धिलक्ष्मी द्वादशे ललितात्मिका एतत् स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ब्राह्मणा क्लेशतो दुःख दरिद्रा भय पीडिताः जन्मांतर सहस्रेषु मुच्यन्ते सर्व क्लेशतः अलक्ष्मीर्लभते लक्ष्मी मपुत्र पुत्रमुत्तमम् धन्यं यशस्यमायुष्यम् वह्निचौरभयेषु च शाकिनी भूतवेताल सर्वव्याधिनिपातके राजद्वारे महाघोरे संग्रामे रिपुसंकटे सभास्थाने श्मशाने च कारागे हारिबंधने अशेष भय संप्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणं स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते या श्रीपद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च युपस्थिते शंखे देवकुले नरेन्द्र भवनी गंगा तटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखां त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधरां पीताम्बरधरां देवीं नानालंकारभूषितां तेजःपुञ्जधरां श्रेष्ठां ध्यायेत् बालकुमारिकां ओंकारलक्ष्मीरूपेण विष्णोहृदयमव्ययम् विष्णुमानन्दमध्यस्थम् ह्रींकार बीज रूपिणी ओम क्लीम अमृतानंद भद्रे सत्य आनंद दायिनी ओम श्रीं दैत्य भक्षरदां शक्ति मालिनी शत्रु मर्दिनी तेज प्रकाशिनी देवी वरदा शुभकारिणी ब्राह्मी च वैष्णवी भद्रा कालिका रक्त शांभवी आकार ब्रह्म रूपेण ओंकारं विष्णुमव्ययम् सिद्धि लक्ष्मी परा लक्ष्मी लक्ष्म्य लक्ष्मी नमोस्तुते सूर्यकोटि प्रतीकाशम् चंद्रकोटि समप्रभम् तन्मध्ये निकरे सूक्ष्मम् ब्रह्मरूपव्यवस्थितम् ओंकार परमानंदम् क्रियते सुखसंपदा सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके प्रथमी त्र्यंबिका गौरी द्वितीये वैष्णवी तथा तृतीये कमला प्रोक्ता चतुर्थे सुरसुंदरी पंचमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा सप्तमे च वरारोहा अष्टमे वरदायिनी नवमे खड्ग त्रिशूले दशमे देव देवता एकादशे सिद्धिलक्ष्मी द्वादशे ललितात्मिका एतत् स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ब्राह्मणा क्लेशतो दुःख दरिद्रा भयपीडिताः जन्मांतर सहस्रेषु मुच्यन्ते सर्व क्लेशतः अलक्ष्मीर्लभते लक्ष्मी मपुत्र पुत्रमुत्तमम् धन्यं यशस्यमायुष्यम् वह्निचौरभयेषु च शाकिनी भूतवेताल सर्वव्याधिनिपातके राजद्वारे महाघोरे संग्रामे रिपुसंकटे सभास्थाने श्मशाने च कारागे हारिबन्धने अशेष भय संप्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ईश्वरेण कृतं स्तोत्रम् प्राणिनां हितकारणम् स्तुवन्ति ब्राह्मणा नित्यम् दारिद्र्यं न च वर्धते या श्रीपद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च युपस्थिते शंखे देवकुले नरेन्द्र भवनी गंगा तटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखां त्रिनेत्रां च त्रिशूलां च पद्मचक्र गदाधरां पीतांबरधरां देवीं नानालंकार भूषितां तेजपुंजधरां श्रेष्ठां ध्यायेत् बालकुमारिकां ओंकार लक्ष्मी रूपेण विष्णु हृदयमव्ययम् विष्णुमानंद मध्यस्थं ह्रींकार बीज रूपिणी ओम क्लीम अमृतानंद भद्रे सत्य आनंददायिनी ओम श्रीं दैत्य भक्षरदां शक्तिमालिनी शत्रुमर्दिनी तेज प्रकाशिनी देवी वरदा शुभकारिणी ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशांभवी आकार ब्रह्म रूपेण ओंकारं विष्णुमव्ययम् सिद्धि लक्ष्मी परा लक्ष्मी लक्ष्म्यलक्ष्मी नमोस्तुते सूर्यकोटि प्रतीकाशं चंद्रकोटि समप्रभं तन्मध्ये निकरे सूक्ष्मं ब्रह्म रूपव्यवस्थितं ओंकार परमानंदं क्रियते सुख संपदा सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके प्रथमे त्र्यंबिका गौरी द्वितीये वैष्णवी तथा तृतीये कमला प्रोक्ता चतुर्थे सुरसुंदरी पंचमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा सप्तमे च वरारोहा अष्टमे वरदायिनी त्रिशूले दशमे देव देवता एकादशे सिद्धिलक्ष्मी द्वादशे ललितात्मिका एतत् स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ब्राह्मणा क्लेशतो दुःख दरिद्रा भयपीडिताः जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः अलक्ष्मीर्लभते लक्ष्मी मत्पुत्रः पुत्रमुत्तमम् धन्यं यशस्यमायुष्यम् वह्निचौरभयेषु च शाकिनी भूतवेताल सर्वव्याधिनिपातके राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे सभास्थाने श्मशाने च कारागे हारिबन्धने अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ईश्वरेण कृतं स्तोत्रम् प्राणिनां हितकारणम् स्तुवन्ति ब्राह्मणा नित्यम् दारिद्र्यं न च वर्धते या श्रीपद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च युपस्थिते शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखां त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम् पीताम्बरधराम् देवीम् नानालङ्कारभूषिताम् तेजःपुञ्जधराम् श्रेष्ठाम् ध्यायेत् बालकुमारिकाम् ओङ्कारलक्ष्मीरूपेण विष्णो हृदयमव्ययम् विष्णुमानन्दमध्यस्थम् ह्रीङ्कारबीजरूपिणी ॐ क्लीं अमृतानन्दभद्रे सत्य आनन्ददायिनी ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी तेजःप्रकाशिनी देवी वरदा शुभकारिणी ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी आकार ब्रह्मरूपेण ओंकारं विष्णुमव्ययम् सिद्धिलक्ष्मी परालक्ष्मी लक्ष्म्यलक्ष्मी नमोऽस्तुते सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभं तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ओंकार परमानन्दं क्रियते सुखसंपदा सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके प्रथमे त्र्यंबिका गौरी द्वितीये वैष्णवी तथा तृतीये कमला प्रोक्ता चतुर्थे सुरसुंदरी पंचमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा सप्तमे च वरारोहा अष्टमे वरदायिनी नवमे खड्गत्रिशूले दशमे देवदेवता एकादशे सिद्धिलक्ष्मी द्वादशे ललितात्मिका एतत् स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा मासं च चतुर्थकं पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ब्राह्मणा क्लेशतो दुःखदरिद्राभयपीडिताः जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः अलक्ष्मीर्लभते लक्ष्मी मत्पुत्रः पुत्रमुत्तमम् धन्यं यशस्यमायुष्यम् वह्निचौरभयेषु च शाकिनी भूतवेताल सर्वव्याधिनिपातके राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे सभास्थाने श्मशाने च कारागे हारिबन्धने अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ईश्वरेण कृतं स्तोत्रम् प्राणिनां हितकारणम् स्तुवन्ति ब्राह्मणा नित्यम् दारिद्र्यं न च वर्धते या श्रीपद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च युपस्थिते शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ॐ श्री सिद्धिलक्ष्मी स्तोत्रम् सम्